एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री शेरबहादुर देउवा वदति व्यावहारिक्यां जीवनोपयोगिन्यां च शिक्षायां बलं प्रदातव्यम्। कञ्चनपुरस्य महेन्द्रनगरवर्तिनः सुदूरपश्चिम विश्वविद्यालयस्य द्वितीयं दीक्षान्त समारोहं ह्य सम्बोधयन् प्रधानमन्त्री देउवा अभाषत विश्वविद्यालयस्य शिक्षा न केवलं औपचारिकी सैद्धान्तिकी एव अपितु व्यावहारिकी जीवनोपयोगिनी समाजस्य विकास रूपान्तरणयोः कृते सहयोगिनी च विधातव्या। विश्वविद्यालयस्य कुलपतिश्च प्रधानमन्त्री देउवा राष्ट्रस्य लोकतान्त्रिक प्रणालीम् अतिरिक्तां सबलां सुदृढां च विधातुम् अर्थतन्त्रं तीव्रं रूपान्तरयितुं च सर्जनात्मिकायाः युगानुकूलायाः वैज्ञानिक्याश्च शिक्षायाः आवश्यकताम् प्रादर्शयत। नेपालस्य संविधानेनापि शिक्षा सम्बद्धाधिकारः मौलिकाधिकारस्य रूपेण स्थापितोस्तीति चर्चयन् प्रधानमन्त्री देउवा अवोचत् मौलिकाधिकारस्य क्रियान्वयनाय सर्वैः प्रतिबद्धतया कार्यसम्पादनम् आवश्यकम् वर्तते। कार्यक्रमे शिक्षा विज्ञान प्रविधि मन्त्री देवेन्द्र पौडेलः नेपालस्य शिक्षानीत्या विश्वविद्यालयैश्च वृत्त्युपार्जनाय विदेश गमनावस्थायाः अन्तकारिणीः योजनाः अग्रे वर्धयितुं बलं प्रादात्। गतदिने एव प्रधानमन्त्री देउवा कञ्चनपुरस्य महेन्द्रनगरे नेपाली कांग्रेस दलेन आयोजितं स्थानीय स्तरेष् निर्वाचितेभ्यो जनप्रतिनिधिभ्य वर्धापन शुभकामना ज्ञापन कार्यक्रमं सम्बोधयन् जनतायाः कार्येभ्य प्राथमिकता प्रदानार्थं स्थानीय स्तराणां जनप्रतिनिधीन् निरदिशत्। कांग्रेस दलस्य सभापतिः प्रधानमन्त्री च देउवा आगामी निर्वाचनेष्वपि नेपाली कांग्रेस दलस्य इतोपि सबलीकरणत्वेन क्रियाशीलाः भवितुं नेतृ कार्यकर्तृन् निरदिशत। कार्यक्रमे नेपाली कांग्रेस दलस्य केन्द्रीय सदस्यौ पूर्व मन्त्रीद्वयं च एनपी साउद रमेश लेखकश्च स्थानीय स्तराणां निर्वाचने आराष्टं नेपाली कांग्रेस दलेन सन्तोषजनक परिणाम प्राप्त इति चर्चयन्तौ इयम् उपलब्धि क्रमेण वर्धनीयेति धारणां व्यक्तवन्तौ। परराष्ट्र मन्त्री डाक्टर नारायण खड्का अमेरिका देशीय सेनायाः एसपीपी नाम्ना राज्य सहभागिता कार्यक्रमेण सम्बद्धायाः सैन्य संविधायाः प्रस्तावम् अग्रे न वर्धयितुं प्रतिबद्धताम् व्यनक्ति। प्रतिनिधिसभायाः अन्तर्राष्ट्रिय सम्बन्ध समितेः ह्य सिंहप्रासादे उपविष्टे उपवेशे परराष्ट्रमन्त्री डाक्टर खड्का एसपीपी कार्यक्रमेण सम्बद्धायाः सैन्य संविधायाः प्रस्तावः नेपालाय स्वीकार्यो न भवतीति भाषमाणः नेपाली सेनया अन्य सम्बद्ध पक्षैश्च सह विमृश्य नेपालः एसपीपी कार्यक्रमस्य सदस्यो नास्तीति निगद्य अमेरिका देशीय सर्वकाराय पत्रचारो विधास्यते इति अज्ञापयत। परराष्ट्रमन्त्री खड्का अमेरिका देशस्य भ्रमणाय प्रधानमन्त्रिणे शेरबहादुरदेउवाभिधाय निमन्त्रणा प्राप्तास्ति उपयुक्त समय प्रधानमन्त्रिणा अमेरिका देशस्य भ्रमणं विधास्यते इति च अबोधयत। उपवेशे प्रधान सेनापतिः प्रभुराम शर्मा नेपालः कस्मिन्नपि सैन्य गठबन्धने सहभागी न भवतीति समस्पष्टयत। अमेरिका देशस्य एकस्मै राज्याय नेपालस्य प्राकृतिक विपदि मानवीय सहायतायै पत्रं लिखितम् इति ज्ञापयन् प्रधान सेनापतिः शर्मा पत्रं नेपाल सर्वकारस्य परराष्ट्रनीतेः विपरीततया न लिखितमिति उपवेशम् अबोधयत। उपवेशे प्रधान सेनापतिः शर्मा सैन्य गठबन्धनम् न भवतीति निगद्य अमेरिका देशीयाधिकारिभ्यः बोधितम् अस्तीति च ज्ञापितवान्। उपवेशे नेकपा एकीकृत समाजवादी दलस्य अध्यक्षः माधव कुमार नेपालः अभाषत नेपालस्य उत्तरवर्तिनी सीमा क्षेत्रे अमेरिका देशीय सेनाया सह संयुक्त सैन्याभ्यासः भवितुं न शक्नोति। पूर्व प्रधानमन्त्री च नेता नेपालः कस्यापि राष्ट्रस्य बलसर्जनं स्वीकार्यं न भवति। एकीकृत समाजवादी दलं राष्ट्रियताया हिते सुरक्षा संवेदनशीलतायाञ्च दृढतापूर्वकं तिष्ठतीति च समस्पष्टयत। उपवेशे सांसदाः नेपालेन स्वतन्त्र परराष्ट्रनीतिं प्रति दृढतया स्थेयमित्यत्र बलं ददतः एसपीपी कार्यक्रमस्य विषयः कुतः कथञ्च अग्रे वर्धितोस्तीति तथ्यं बहि आनेतुम् अनुसन्धान समितेः संघटनाय बलं प्रादुः। अन्तर्राष्ट्रिय समित्या एसपीपी संविधायः बहि आगते विवादास्पदे विषये नेपाल सर्वकारस्य स्पष्ट धारणा निर्णयस्य रूपेण बहि आनेया एसपीपी कार्यक्रमे नेपालः सहभागी न भविष्यतीति निगद्य अमेरिका देशीय सर्वकाराय औपचारिक रूपेण तत्कालं ज्ञापनाय नेपाल सर्वकारः परराष्ट्र मन्त्रालयश्च निर्दिष्टौ च स्तः। प्रतिनिधि सभायाः गतदिवसीयेन द्वितीयोपवेशेन एतद् विक्रमवर्षीये सामाजिक सुरक्षा प्रथम संशोधन विधेयकम् ज्वलनशील द्रवाण्य घातक रासायनिक पदार्थ नियमन विधेयकञ्च विचार्येतामिति प्रस्तावः सर्वसम्मत्या स्वीकृतः। तत्पूर्वं प्रतिनिधि सभायाः प्रथमोपवेशे गृहमन्त्रिणा बालकृष्ण खाँड इत्यनेन ज्वलनशील द्रवाण्य घातक रासायनिक पदार्थ नियमन विधेयकम् नेपाल प्रहरी प्रदेश प्रहरी कार्य सञ्चालन सुपर्यवेक्षण समन्वय विधेयकम् सामाजिक सुरक्षा विधेयकञ्च प्रस्तुतानि आसन्। उपवेशे अर्थसमितेः सभापतिः कृष्ण प्रसाद दाहालः एतत् विक्रमाब्दीये सार्वजनिक ऋण व्यवस्थापन विधेयक सम्बद्धम् समितेः प्रतिवेदनम् सुरक्षण कोष विधेयक सम्बद्धम् समितेः प्रतिवेदनम् च प्रास्तोत। उपवेशस्य प्रारम्भे सांसदः योगेश कुमार भट्टराई जल विप्लव भूस्खलनाभ्यम् प्रभावितानाम् जनानाम् उद्धाराय सहायतायै आहतानाम् उपचाराय च सर्वकारस्य ध्यानाकर्षणम् अकारयत। सांसदः एकबाल मिया बारा जनपदस्य सीमरास्थाने घटितायाः सामूहिक हत्यायाः घटनायाः तथ्यम् अनुसन्धाय दोषिणो दण्डनस्य सीमायाम् आनेतुम् अयाचत। प्रतिनिधिसभायाः अपरोपवेशः परश्वः आषाढस्य षष्ठे दिवसे सोमवासरे दिवा एकवादने पुनर्वस्ता। राष्ट्रिय सभायाः ह्यस्तनोपवेशेन एतद् विक्रमवर्षीयम् विनियोजन विधेयकम् आधृत्य विमृश्यताम् इति निगद्य प्रस्तुतः प्रस्तावः बहुमतेन स्वीकृतो वर्तते। उपवेशे अर्थमन्त्रिणा जनार्दन शर्मणा प्रस्तावोऽसौ प्रस्तुतः आसीत्। तत्पूर्वम् उपवेशे सांसदैः सामयिक विषयेषु सर्वकारस्य ध्यानाकर्षणम् विहितम्। सांसदः वामदेव गौतमः अवोचत् एसपीपी कार्यक्रमे कस्यामपि स्थितौ नेपालः संलग्नो न भविष्यति। सांसदः गौतमः संसदि आगत्य एसपीपी संविधायाः विषये स्पष्टीकर्तुम् प्रधानमन्त्रिणम् शेरबहादुरदेवाभिधम् परामृष्टवान्। उपवेशे सांसदाः अवोचन् सर्वकारे परिवर्तिते सत्यपि परराष्ट्रनीति न परिवर्तनीया, देशस्य कलंकनत्वेन परस्परम् विरोधो न कर्तव्यः, राजनीतिकदलानाम् अपरिपक्व व्यवहारेण जनतायाम् नैराश्यम् आगतमस्तीति कारणेन दलैः दायित्ववायिभिश्च भाव्यम्। सांसदाः अभासन्त शैक्षिक सत्रस्य प्रारम्भणस्य मासद्वयस्य अनन्तरमपि पाठ्यपुस्तकानि विद्यार्थिनाम् हस्तेषु न प्राप्तानीति विषये सर्वकारः गभीरो नास्ति, महिला हिंसायाः अन्त्याय सर्वैः दलैः एकीभवनीयम्, कृषेः समये मलम् अपेक्षते इति विषयः पूर्वमेव ज्ञातः सन्नपि यथासमयम् मलस्य व्यवस्थापनाभाव दुःखद विषयश्च वर्तते। राष्ट्रियसभायाः अपरोपवेशः स्वदिवा एकवादने पुनर्वस्ता। नेकपा एमाले दलस्य अध्यक्षः केपी शर्मा ओली निगदति समाजवादं सहजरीत्या बोद्धुम् बोधयितुम् च आवश्यकम् अस्ति। काष्ठमण्डपे ह्य आयोजिते एमाले दलस्य निर्वाचितानाम् जनप्रतिनिधीनाम् मेलनस्य समापन समारोहे अध्यक्षः ओली अवदत् नेपाले समाजवादो नाम सुखिनो नेपालिनः समृद्धो नेपालश्च वर्तते। अध्यक्ष ओली जनप्रतिनिधिभिः यथार्थनीतेः क्रियान्वयनम् प्रचारश्च विधातव्यमिति चर्चयन् देशस्य निर्माणाय दलस्य आवश्यकताम् च दर्शयन् विकासस्य उद्देश्यानां परिपूर्तये कार्याणि सम्पादयितुं जनप्रतिनिधीन् निरदिशत। नेकपा एमाले दलस्य पक्षतो निर्वाचितानां जनप्रतिनिधीनां मेलनेन विंशति सूत्रीयः संकल्प प्रस्तावः पारितीकृतो वर्तते। प्रमुख प्रतिपक्षिणः नेकपा एमाले दलस्य अध्यक्षेण केपी शर्मा ओलिना सह गृहमन्त्री बालकृष्ण खाँड विधिन्याय संसदीय विषय मन्त्री गोविन्द प्रसाद शर्मा कोइराला च ह्यो मेलवार्ताम् अकुरुताम्। भक्तपुरस्य बालकोट स्थिते अध्यक्षस्य ओलिनः निवासे सम्पन्ने तस्मिन् मेलने एतेषां मध्ये नागरिकता विधेयकस्य राजनीतिक सहमत्या अग्रे वर्धनस्य विषये वार्ता विहितेति गृहमन्त्रिणः सचिवालयो ज्ञापयति। मेलने नागरिकता विधेयकस्य सदने अग्रे प्रवर्धनस्य दलीय सहमत्या पार्टीकरणस्य च विषयो अनुकूलं विमर्शनं विहितमिति च अनेन सचिवालयेन ज्ञापितमस्ति। इति समाचाराः।